सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे. अस्माकं प्रवर्तमानविषयः अस्ति तत्र रूपलक्षणे धलसार्थक्यम्. रूपलक्षणे धलसार्थक्यं तत्र प्रथमतया अस्माकं लक्षणवाक्यं पठितमासीत् नाम चक्षुर्मात्रग्राह्यः गुणः रूपम् इति. यत् वाक्यम् अत्र अस्ति तत्र चक्षुर्मात्रग्राह्यः गुणः रूपम् इति. तत्र वयं दृष्टवन्तः तत्र धलत्रयमस्ति. तत्र चक्षुर्मात्रग्राह्यः गुणः रूपम्. रूपम् इति गुणः अस्ति, तस्य लक्षणवाक्ये तत्र धलत्रयमस्ति. एकमस्ति चक्षुरिन्द्रियेण ग्राह्यः, द्वितीयमस्ति तत्र चक्षुर्भिन्नेन्द्रियेण अग्राह्यः, तृतीयमस्ति गुणः इति. तत्र एतत् चित्रमस्ति, एतत् चित्रं किं निदर्शयति? चक्षुरिन्द्रियेण ग्राह्यः रूपं, तादृशगुणः अस्ति. अन्यचित्रेण वयं प्रदर्शितवन्तः तत्र घ्राणादि नाम चक्षुर्भिन्नेन्द्रियैः अग्राह्यः गुणः अस्ति रूपम्. अपि तृतीयम् अस्ति, रूपं तु गुणः अस्ति इति कृत्वा तत्र धलत्रयम् अस्ति लक्षणवाक्ये. इदानीं तत्र लक्षणवाक्ये धलत्रयम् अस्ति इति चिन्तनं, किन्तु तेषां सार्थक्यं करणीयम्. नाम तत्र तत्र दोषत्रयराहित्यम् अत्र अस्ति. लक्षणं समीचीनम् अस्ति इति प्रदर्शनीयम् अस्ति. तत्र वयं दृष्टवन्तः तत्र यत्र यत्र तत्र रूपमस्ति तत्र चक्षुर्ग्राह्यत्वं तु अस्ति, अपि घ्राणेन्द्रियैः तत्र अग्राह्यः तदपि अस्ति यत्र यत्र रूपम् अस्ति इति कृत्वा वयं दृष्टवन्तः तत्र अव्याप्तिदोषः नास्ति. अपि वयं दृष्टवन्तः तत्र तत्र असम्भवदोषः अपि नास्ति, किन्तु तत्र अतिव्याप्तिदोषः नास्ति इति प्रदर्शनीयम् अस्ति. अथ तत्र दलसार्थक्यं वयं दृष्टवन्तः तत्र वायुलक्षणे दलसार्थक्यं कथं भवति इति. अत्रापि तादृशकार्यमस्ति. अस्मिन् कार्ये वयम् एकं भागं कृतवन्तः, किन्तु इदानीं तत्र अन्यः भागः यः अस्ति तद् अद्य भविष्यति, किन्तु सः अद्य भविष्यति. किन्तु तस्मात् प्राक् चित्रदर्शनं तत्र वाक्यं कथम् अस्ति अपि तत्र दले किं किम् अस्ति इति एकवारं पुनस्मरणं कुर्मः. तदनन्तरम् अद्यतनपाठस्य आरम्भं तत्र साक्षात् विषयः आरम्भं तस्य आरम्भः भवति. तर्हि तत्र नूतनतया के आगतवन्तः, नामानि उच्यता?
विमला अस्मि महोदय.
विमला भगिनी नमस्कारः. पद्मा भगिनी नमस्कारः.
चन्द्रमति नमस्कारः महोदय.
चन्द्रमति भगिनी नमस्कारः. अन्य कोऽपि? करोमि भगिनि. अन्य कोऽपि अस्ति वा?
धन्यवादः महोदय.
धनश्री अस्मि महोदय.
धनश्री भगिनि नमस्कारः. धनश्री भगिनि नमस्कारः. अस्तु तर्हि तत्र प्रथमतया एतत् चिन्तयामः. तत्र योगेन्द्रमहोदय, तत्र प्रथमचित्रं किं वदति? एतत्
चित्रं वदति चक्षुषा रूपं ग्राह्यते, चक्षुमात्र एव रूपं ग्राह्यते.
न, प्रथमचित्रं केवलं चक्षुषा रूपं
ग्राह्यते. रूपस्य ग्रहणं भवति
चक्षुषा. समीचीनं महोदय. ग्रहणं नाम किमस्ति? ग्रहणं नाम
तस्य ज्ञानं भवति.
ज्ञानं, तस्य प्रत्यक्षज्ञानं भवति. रूपम् इति विषयः यस्य ज्ञानम् अस्ति, ज्ञानस्य विषयः रूपम् अस्ति, तादृशज्ञानं चक्षुषा भवति. तर्हि
भवति
हा तर्हि चक्षुजन्यं प्रत्यक्षज्ञानस्य विषयः अस्ति रूपम्। चक्षुजन्यज्ञानस्य विषयः अस्ति रूपम् इति वयं दृष्टवन्तः। समीचीनं महोदय। हा तर्हि तत्र वयं तत्र चक्षुनिष्ठजनकता जन्यता प्रत्यक्षं यदस्ति एतदेव अत्र अस्ति खलु। एकवारं पठतु महोदय तत्र चक्षुरिन्द्रिय
चक्षुरिन्द्रियनिष्ठजनकता निरूपितजन्यता आश्रय प्रत्यक्षज्ञाननिष्ठविषयता विषयता निरूपितविषयता विषयतावत्त्वे सति
इति खलु। नाम तत् किं वदति चक्षुनिष्ठजनकता
आश्रयः रूपम्।
हा नाम इतः आरभ्य चक्षुनिष्ठजनकता निरूपित जन्यता आशय प्रत्यक्ष
प्रत्यक्षज्ञानं
विषयता
निरूपिता विषयता आश्रयः रूपम्
रूपम्। हा नाम एतादृशी विषयता विषयता अस्ति रूपे, किन्तु केवलं विषयता वदामश्चेत् तत्तु बृहान् तत्र बृहत् क्षेत्रम् अस्ति विषयता, किन्तु विषयतायाः मध्ये एतादृशी विषयता विशिष्टा अस्ति। कथं विशिष्टा इत्युक्ते तत्र प्रत्यक्षज्ञानमस्ति, चक्षुषा जन्यमस्ति, एतत् सर्वं वक्तव्यम् अस्ति। एतत् सर्वं विषयतायाः क्षेत्रस्य न्यूनं करोति। अतः एतादृशी विषयता अस्ति रूपे। समीचीनं महोदय, धन्यवादः। हा इदानीं तत्र इदानीं द्वितीयचित्रं तत्र नीता भगिनी तत्र तत्र गन्धः इति त्यजतु, किन्तु द्वितीयचित्रं किं वदति, रूपस्य विषये किं वदति?
अस्माकं द्वितीयदलः अस्ति चक्षुभिन्ने इन्द्रियैः न ग्राह्यमिति। तादृश द्वितीयचित्रे यद् दत्तमस्ति यद् घ्राणादि इन्द्रिय तत् चक्षुभिन्ने इन्द्रिये अस्ति, किन्तु घ्राणादि इन्द्रियेण यद् ग्राह्यमस्ति तत् न रूपम्।
उत्तमं, समीचीनं,
भाव अस्ति इति।
समीचीनं, तर्हि तत्र
विषयत्व अभावत्वं तत् तस्मिन् अस्ति तत्र।
हा उत्तमं भगिनि। हा तर्हि तत्र घ्राणादिजनकता एतत् सर्वं यदि वदामः तदनन्तरम् अन्तिमे अन्ते किं भवति, विषयतायाः अभावः रूपे अस्ति,
रूपे अस्ति।
हा अभावः अभावः रूपे अस्ति, यथा यथा विषयता रूपे अस्ति तथा विषयतायाः अभावः रूपे अस्ति। समीचीनं। हा हा एकवारं जस्ट् केवलं तत्र अभ्यासार्थं तत्र घ्राणादि इति आरभ्य एकवारं वदतु।
घ्राणादि घ्राणादि इन्द्रियैः जनकता
घ्राणादिनिष्ठजनकता
घ्राणादिनिष्ठजनकता निरूपिता जन्यतायाः आश्रय प्रत्यक्षं प्रत्यक्षनिष्ठविषयिता प्रत्यक्षनिष्ठविषयिता निरूपिता विषयतायाः अभावरूपम्
अभावः रूपे अस्ति
रूपे अस्ति
अभावः रूपे अस्ति। समीचीनं भगिनि। हा अतः तदेव तत्र दत्तमस्ति चक्षुरितर इन्द्रियनिष्ठजनकतानिरूपितजन्यता आश्रय प्रत्यक्षज्ञानं तस्मिन् प्रत्यक्षज्ञाननिष्ठ विषयिता निरूपित विषयता विषयता स्थाने विषयत्वम् इति स्वीकृतं तावदेव विषयत्व अभावः सति अभाववत्त्वे सति इति अस्ति। अभाववत्त्वे सति नाम अभाव अभावः रूपे अस्ति। अपि तृतीयदलमस्ति गुणत्वं गुणः रूपं गुणः अस्ति। अतः मात्र चक्षुर्ग्राह्यः रूपम् इति प्रथमचित्रं चक्षुर्मात्र ग्राह्यम् इति मात्र इति तस्य निदर्शनं भवति द्वितीयचित्रेण। अपि तृतीयदलमस्ति गुणः इति। समीचीनं भगिनि, धन्यवादः। अतः तत्र दलसार्थक्यं हा करणीयमस्ति अस्माभिः, किन्तु अत्र दलत्रयमस्ति इति कृत्वा तत्र किञ्चित् कार्यं पूर्ववत् नास्ति. तत्र पूर्ववत् दलत्रयं दलद्वयं यत्र आसीत् तत्तु वयं जानीमः, किन्तु अत्र दलत्रयमस्ति इति कृत्वा किञ्चित् भिन्नम् अस्ति. अतः तत्र दलत्रयं यदस्ति वयं तस्य व्यवहारः तत्र अनया रीत्या कुर्मः, तत्र प्रथमदलं वयं ग्राह्यत्वम् इति चिन्तयामः. तत्र विषया तत्र रूपं ग्राह्यमस्ति, ग्राह्यत्वं रूपे अस्ति, तर्हि ग्राह्यत्वं चक्षुरिन्द्रियग्राह्यत्वं रूपे अस्ति इति अस्माकं प्रथमदलस्य व्यवहारः भवति ग्राह्यत्वम्. द्वितीयदलस्य व्यवहारः कथं कुर्मः, तत्र चक्षुर्भिन्नेन्द्रियैः अग्राह्यः, अग्राह्यमस्ति रूपं, तर्हि अग्राह्यत्वं रूपे अस्ति इति चिन्तयामः. अग्राह्यत्वं रूपे अस्ति इति चिन्तयामः. तृतीयं तु गुणत्वं, तर्हि ग्राह्यत्वं चक्षुरिन्द्रियेण ग्राह्यत्वं, चक्षुर्भिन्नेन्द्रियैः अग्राह्यत्वं, तृतीयमस्ति गुणत्वम् इति दलत्रयं रूपे अस्ति. अपि एतैः दल तत्र त्रिभिः वयं तत्र लक्षणं सम्यक् भवति इति अस्माकं चिन्तनम्. तर्हि तत्र दलसार्थक्यं कुर्मः. इदानीं प्रथमतया तत्र वयं किं गतवर्गे कृतवन्तः तस्य उदाहरणरूपेण एकं लघु उदाहरणं कुर्मः, तदनन्तरं तत्र मूलविषयं गच्छामः. तर्हि तत्र दोषत्रयं किं किम् अस्ति इति एकवारम् अन्य कोऽपि वदतु. तर्हि तत्र नरसिंहमहोदय, तत्र एतत् चित्रं तत्र दोषत्रयं निदर्शयति, किं किम् अस्ति? एतदस्ति, तत्र एतदस्ति लोकं, लोके एषः भागः अस्ति अस्माकं लक्ष्यम्. इदानीं तत्र किमपि लक्षणम् अस्ति इति चिन्तयामः, तत्र अत्र अस्ति, अत्र कः दोषः तत्र प्रदर्शितः?
अत्र अव्याप्तिदोषः प्रदर्शितः महोदय.
हा, नाम अव्याप्तिदोषः नाम
इत्युक्ते लक्षणं लक्ष्ये सम्पूर्णतया न भवति.
हा, लक्ष्ये कुत्रचित् अस्ति, कुत्रचित् नास्ति. समीचीनम्. अपि एषः
एतत् अस्ति अतिव्याप्ति, लक्ष्यं विहाय लक्षणम् अन्यत्रापि लभवति.
न न, अत्र अत्र लक्ष्यम् एतदस्ति अस्माकं लक्ष्यम्, अपि तत्र लक्षणम् अत्र नास्ति एव
सम्भवः.
चित्रम् असम्भव, प्रथमं चित्रम् असम्भव न भवति कुत्रापि.
प्रथमचित्रः, प्रथमचित्रम् असम्भवदोषः, द्वितीयचित्रम् अस्ति अव्याप्तिदोषः, तृतीयमस्ति अतिव्याप्तिदोषः. अतिव्याप्तिदोषः किमस्ति? लक्ष्यं विहाय एकमेव स्थलम् अस्ति चेत् यत्र लक्षणमस्ति तर्हि अतिव्याप्तिदोषः भवति. समीचीनं महोदय. हा, तर्हि एतदेव दोषत्रयमस्ति. अस्तु, इदानीम् अस्माकम् उदाहरणं स्वीकुर्मः, तत्र लौकिक उदाहरणं, तत्र भाषद्वयं स्वीकुर्मः. तत्र छात्राः, षट् छात्राः सन्ति, केचन हिन्दी जानन्ति, केचन तमिळ् भाषा जानन्ति. तर्हि तत्र जानाति न जानाति इति अस्तु, तत्र निर्दिष्टम् अस्ति. तर्हि इदानीं तत्र सर्वे एतत् जानन्ति खलु, तत्र वैण्डेकरम् इति उच्यन्ते. तत्र आनन्दः, चैत्रः, उमेशः, तत्र ते सम्यक् रीत्या, तत्र आनन्दः अस्तु, तत्र पश्यामः एकवारं. तर्हि धन्यवादः महोदय. हा, इदानीं तत्र, हा इदानीं तत्र, हा प्रेमलता भगिनी, तत्र चित्रं एतद् दृष्ट्वा अथवा चित्रं दृष्ट्वा वदतु, तत्र हिन्दीज्ञानं कुत्र अस्ति केषु अस्ति प्रेमलता भगिनि न श्रूयते अस्तु तर्हि चन्द्रमति भगिनि
आनन्दे अस्ति हिन्दीज्ञानं अनन्तरं नीला
सीता
सीता सीता भार्गवी चैत्रा उमेशः
उमेशः समीचीनं
तेषु हिन्दीज्ञानम् अस्ति
हा तेषु हिन्दीज्ञानम् अस्ति समीचीनं भगिनि हा इदानीं तत्र तथैव तत्र तमिळ् ज्ञानं कुत्र अस्ति तमिळ्ज्ञानं
सीतायाम् अस्ति भार्गव्याम् अस्ति उमेशे अस्ति उमायाम् अस्ति तदेव
तावदेव तदेव हा समीचीनं हा तर्हि इदानीम् इति अस्ति तर्हि तत्र हिन्दीज्ञानम् अपि तत्र तमिळ् ज्ञानम् इति अस्तु इदानीम् अस्माकं लक्ष्यम् अस्ति भार्गवी अपि सीता इति चिन्तयतु भार्गवी अपि सीता अस्माकं लक्ष्यमस्ति तत्र अस्य लक्षणं वक्तुम् इच्छामः भार्गवी सीता इति छात्रद्वयोः छात्रद्वयस्य लक्षणं वक्तुम् इच्छामः लक्ष्यमस्ति भार्गवी अपि सीता हा इदानीं तत्र तेषु तत्र तमिळ् ज्ञानम् अस्ति चेत् तत्र किं भवति इदानीं लक्षणं वयं वदामः ओ भार्गवी सीता छात्रद्वयस्य लक्षणम् अस्ति तमिळ् ज्ञानम् इति वदामश्चेत् कः दोषः भवति
अतिव्याप्तिदोषः
अतिव्याप्तिदोषः भवति किमर्थम्
अलक्ष्य अपि हिन्दीम् अपि जानाति अतः
न न न तमिळ् ज्ञानं तमिळ्
ज्ञानं तमिळ् ज्ञानं भार्गव्याम् अस्ति सीतायाम् अस्ति अन्यत्र अपि आनन्दे अपि अस्ति उमायाम् अपि अस्ति उमायामपि तमिळ् ज्ञानम् अस्ति
तत्र एषः भागः तमिळ् ज्ञानं एषः भागः हिन्दीज्ञानं तर्हि तमिळ् ज्ञानम् इति वदामश्चेत् उमायामपि
उमायामपि अस्ति
हा अतः उमायां वयं किं उमायाम् अस्ति अतः अतिव्याप्तिः अपि अतिव्याप्तिदोषः अस्मिन् लक्षणे अस्ति एतत् साक्षात् एतद् वस्तुतः लक्षणं नास्ति तमिळ् ज्ञानम् इति वस्तुतः लक्षणं नास्ति यतोहि तस्मिन् दोषः अतिव्याप्तिदोषः भवति व्यवहारः कीदृशः भवति तमिळ् ज्ञानम् इति चेत् तत्र उमायां तमिळ् ज्ञानम् उमायामपि अस्ति उमायामपि अतिव्याप्तिः इति वदामः उमायाम् अतिव्याप्तिः तर्हि तमिळ् ज्ञानम् इति लक्षणे अतिव्याप्तिदोषः भवति इदानीं तत्र अन्य कोऽपि धन्यवादः भगिनी हा इदानीं तत्र अन्य कोऽपि तत्र हा शोभा भगिनि इदानीं तत्र हिन्दीज्ञानम् इति वदामश्चेत् तत्र किं भवति हिन्दीज्ञानम् एषः
महोदय हिन्दीज्ञानम् इति भार्गवी सीता एते तु जानन्ति किन्तु आनन्दः चैत्रः उमेशः चैत्रः उमेशः अपि आनन्दः ते अपि जानन्ति अतः दोषः भवति
हा तर्हि हिन्दीज्ञानम् इति चेत् तत्र अतिव्याप्तिः भवति आनन्दे चैत्रे उमेशे इति अस्माकं व्यवहारः भवति हिन्दीज्ञानम् इति चेत् इति लक्षणं चेत् तर्हि तत्र आनन्दे चैत्रे उमेशे अतिव्याप्तिः भवति तमिळ् ज्ञानम् इति दलं चेत् उमायाम्
अतिव्याप्तिदोषः
न ते केवलम् अतिव्याप्तिः इति वदामः तत्र अतिव्याप्तिः भवति दलस्य दोषः अस्ति अतिव्याप्तिदोषः तत्र व्यवहारः एतादृशं भवति व्यवहारः एतादृशः भवति
दलस्य
तमिळ् ज्ञानं तमिल्ज्ञानम् इति दलं चेत् उमायाम् अतिव्याप्तिः
दले दोष
तेन अतिव्याप्तिदोष दले आगच्छति. हिन्दीज्ञानम् इति चेत् आनन्दे उदाहरणार्थमानन्दः इति स्वीकुर्मः आनन्दे आनन्दे उदाहरणम् एकम् उदाहरणं अस्ति चेदपि अतिव्याप्तिदोषः प्रदर्शितः भवति. तर्हि आनन्दः इति उदाहरणं स्वीकुर्मः.
हिन्दीज्ञानम् इति
आनन्दे अतिव्याप्तिः अस्ति तर्हि
दोषः भवति
अतिव्याप्ति भवति इति अस्ति. समीचीनं. हा इदानीं यदि दलद्वयमस्ति नाम दलद्वयं वयं कथं वदामः तत्र हिन्दीज्ञानवत्वे इति अस्ति. हिन्दीज्ञानम् इति दलम् अपि तमिल्ज्ञानम् इति दलं किन्तु वत्वम् इति योजितवन्तः. तत्र वत्वं किमस्ति?
वत्वम् इत्युक्ते तत्र समानस्तरं भवति हिन्दीज्ञानम् एव.
हा हिन्दीज्ञानम् एव. हिन्दीज्ञानवत्वं नाम हिन्दीज्ञानमेव. तमिल्ज्ञानवत्वं नाम तमिल्ज्ञानमेव. हिन्दीज्ञानं यस्मिन् अस्ति तत्र वत् इति मतु प्रत्ययः.
पुनः ज्ञानवान् अथवा ज्ञानवती इति भवति.
पुनः भाववाचकपदेन त्वम् इति पदेन उपरि गच्छामः तत्र हिन्दीज्ञानम् इति एव भवति. अपि तत्र सतिसप्तमी प्रयोगः भवति हिन्दीज्ञानवत्वे सति तमिल्ज्ञानवत्वं. तत्र दलद्वयं यत्र अस्ति तत्र सतिसप्तमी तस्य प्रयोगः भवति. हा अतः इदानीं दलद्वयमस्ति चेत् इदानीम् अतिव्याप्तिदोषः अस्ति वा?
हा दलद्वयम् अस्ति चेत् तत्र इदानीं हिन्दीज्ञान ज्ञानवत्वे सति तमिल्ज्ञानवत्वम् इति अस्ति चेदपि अतिव्याप्तिदोषः भवति यतोहि तत्र
लक्ष्यमस्ति भार्गवी अपि सीता.
लक्ष्यमस्ति भार्गवी अपि सीता किन्तु अन्ये अपि जानन्ति यथा तत्र हिन्दीज्ञानं. अस्तु अस्तु न नास्ति नास्ति महोदय. तत्र भार्गवी सीता इति अपि च अन्ये तत्र उपरि अन्ये के ज्ञातवन्तः महोदय किञ्चित् हा अस्तु तत्र सीता भार्गवी एव अस्तु हिन्दी अपि तमिलज्ञानम् इति दलद्वयं तत्र अतिव्याप्तिदोषः तु न भवति.
नास्ति इदानीं. हा समीचीनं. तर्हि तत्र अस्य लक्ष्यमस्ति भार्गवी सीता इत्युक्ते एतदेव अस्माकं लक्ष्यमस्ति चेत् तर्हि हिन्दीज्ञानवत्वे सति तमिल्ज्ञानवत्वम् इति वदामश्चेत् अतिव्याप्तिदोषः न भवति. तर्हि प्रथमदल तत्र तमिल् इति ज्ञानं तस्य दले उमायाम् अतिव्याप्तिः आसीत् किन्तु यदि हिन्दीज्ञानम् इति योजयामः सः अतिव्याप्तिः अपगच्छति. हिन्दीज्ञानम् इति यदि योजयामः उमा इति अपगच्छति. अत्र हिन्दीज्ञानम् इति केवलं हिन्दीज्ञानम् आसीत् चेत् तत्र आनन्दे अतिव्याप्तिः आसीत् आनन्दः इति अतिव्याप्तिः आसीत्. किन्तु यदि तमिल् ज्ञानम् इति योजयामः किं भवति? सः अतिव्याप्तिः अपगच्छति. हा आनन्दे अतिव्याप्तिः आसीत् किन्तु तमिल् ज्ञानम् इति वदामश्चेत् आनन्दे तु तमिल् ज्ञानं नास्ति अतः सः नागच्छति. तर्हि अतिव्याप्तिदोषः निवारितः भवति. तर्हि तत्र द्वितीयदलस्य योजनेन प्रथमदले यः दोषः आसीत् सः निवारितम्. अस्य दलस्य योजनेन अस्मिन् दले यः दोषः आसीत् सः निवारितः भवति खलु. तत्र एकम् एकस्य दलस्य योजनेन अन्यस्मिन् दले यः अतिव्याप्तिदोषः अस्ति सः निवारितः भवति. हा समीचीनम्. अस्तु धन्यवादः भगिनि. हा इदानीं तत्र अतः तत्र सारांशत्वेन तत्र एतद् लक्ष्यमस्ति चेत् वयं लक्षणवाक्यं भवति हिन्दीज्ञानवत्वे सति तमिळ् ज्ञानवत्वम् अथवा तमिळ् ज्ञानवत्वे सति हिन्दीज्ञानवत्वम् इति अस्य यदि लक्ष्यम् एतदस्ति. अस्तु इदानीं धनश्री भगिनी यदि लक्ष्यमस्ति उमा, लक्ष्यमस्ति उमा, तर्हि लक्षणवाक्यं किं भवति? एकमेकं प्रथमतया उमायां किं किम् अस्ति इति वदतु, किं नास्ति इति वदतु.
उमायां तमिलज्ञानम् अस्ति, हिन्दीज्ञानं नास्ति.
हा अस्तु, तर्हि उमायां तमिलज्ञानम् अस्ति किन्तु हिन्दीज्ञानं नास्ति. तर्हि यदि एषः भागः लक्ष्यमासीत् तर्हि तत्र लक्षणं किं भवति?
ये सर्वे तमिल, येषां तमिलज्ञानं, येषु तमिलज्ञानम् अस्ति,
तर्हि अत्र लक्ष्यम्, एतत् लक्ष्यमासीत् चेत् अस्माकं लक्षणं भवति तमिळ् ज्ञान ज्ञानवत्वं, तत्र तमिळ् ज्ञानम् अत्र अस्ति इति कृत्वा तमिळ् ज्ञानवत्वं तत्र लक्ष्यं, लक्षणं भवति. किन्तु इदानीं वयं क्षेत्रस्य क्षेत्रं न्यूनम् अभवत्, केवलम् उमा इति अस्ति क्षेत्रं, तर्हि केवलं तमिळ् ज्ञानवत्वं वदामश्चेत् क्षेत्रं तत्र अतिव्याप्तिदोषः भवति खलु. हा तर्हि तत्र कथं निवारयामः? तर्हि तत्र उमायां
तमिलभिन्नज्ञानं नास्ति.
हा हिन्दीज्ञानं नास्ति, तर्हि हिन्दीज्ञान
तमिलभिन्नज्ञानस्य अभावे.
हा हिन्दीज्ञानम् इति एव हिन्दीज्ञान अभाव, हिन्दीज्ञान अभाववत्वं तत्र उमायमस्ति वा? हिन्दीज्ञानस्य अभावः उमायमस्ति,
अभावः अस्ति.
हा भार्गवी अपि सीता तत्र का स्थितिः? तयोः तत्र तर्हि अभावः तत्र नास्ति, अभावः तत्र नास्ति खलु. हिन्दीज्ञानस्य अभावः अत्र नास्ति खलु. हा उमायां हिन्दीज्ञानस्य अभावः अस्ति, किन्तु भार्गव्याम् अथवा सीतायां हिन्दीज्ञानस्य अभावः नास्ति खलु. तर्हि लक्षणवाक्यं किं भवति? यथा वयम् उक्तवन्तः हिन्दीज्ञानवत्वे सति तमिळ् ज्ञानवत्वं, तर्हि अत्र किं भवति?
हिन्दीज्ञान अभावत्वे सति तमिळ् ज्ञानवत्वं.
हा उत्तमं, हिन्दीज्ञान अभाववत्वे सति तमिळ्
ज्ञानवत्वं.
हा उत्तमं भगिनि. हा तत्र हा समीचीनं. हा तर्हि इदानीं तत्र हा पद्मा भगिनि, तत्र यदि केवलं तत्र हा एतद् अस्माकं लक्ष्यम् अस्ति चेत् तर्हि वाक्यं किं भवति? प्रथमतया किम् अस्ति इति वदतु तद्. हा
आनन्दः, चैत्रः, उमेशः, तेषां मध्ये हिन्दीज्ञानं मात्रमस्ति, तमिळ्ज्ञानं नास्ति.
समीचीनं. हा तर्हि हिन्दीज्ञानवत्वं,
हिन्दीज्ञानवत्वं परन्तु तमिळ्ज्ञान अभाववत्वं.
समीचीनं. हा तर्हि सतिसप्तमी प्रयोगे प्रयोगे इदानीं वदतु. हा
तमिळ्ज्ञान अभाववत्वे सति हिन्दीज्ञान
वत्वं. समीचीनं भगिनि. हा तमिळ् ज्ञान अभाववत्वे सति हिन्दीज्ञानवत्वम् इति. समीचीनं भगिनि. हा तर्हि तत्र दलद्वयम् आवश्यकं भवति यदि तत्र अंशद्वयमस्ति, तत्र हिन्दीज्ञानमस्ति तमिळ् ज्ञानं नास्ति इति तादृश स्थितौ. अस्तु समीचीनम्. इदानीम् अस्माकं तत्र दलत्रयमस्ति, तत्र दलत्रयं किमस्ति? ग्राह्यत्वं, चक्षुरिन्द्रियग्राह्यत्वम्, अग्राह्यत्वं द्वितीयदलं, चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं अपि तृतीयदलम् अस्ति तत्र तृतीयदलम् अस्ति अत्र गुणत्वं गुणत्वम् इदानीम् अस्माकं मूलविषयः तत्र रूपस्य लक्षणम् इदानीं तत्र दलत्रयमस्ति अपि अन्यत् वयं जानीमः तत्र यथा तत्र शोभा भगिन्या उक्तं तत्र वत्वं नाम गन्धवत्वं नाम गन्धः गन्धवत्वं नाम गन्धः वत्वम् अस्ति चेत् तदेव यत्र वत्वं योजयामः पूर्वं यदस्ति तदेव पदार्थः सः एव पदार्थः गन्धः तदनन्तरं वत्वं गन्धः गन्धः यस्मिन् अस्ति सः गन्धवत् अथवा गन्धवान् तस्य पदार्थस्य धर्मः कः त्वम् इति धर्मवाचकपदं धर्मः अस्ति गन्धः अतः गन्धवत्वं नाम गन्धः एव इति अस्ति अस्तु इदानीम् अस्माकं मूलविषय रूपस्य लक्षणम् इदानीं तत्र चित्रम् एतादृशं भवति तत्र ग्राह्यत्वम् इति प्रथमदलं तस्य क्षेत्रं बृहान् अस्ति क्षेत्रं बृहत् अस्ति अग्राह्यत्वम् इति द्वितीयदलं तस्य क्षेत्रमपि बृहत् अस्ति अपि तृतीयदलमस्ति गुणत्वम् अपि रूपम् अत्र अस्ति किमर्थं रूपे ग्राह्यत्वमपि अस्ति अग्राह्यत्वमपि रूपे अस्ति गुणत्वमपि रूपे अस्ति वयम् अस्माकं चिन्तनमस्ति यत्र ग्राह्यत्वमस्ति अग्राह्यत्वमस्ति गुणत्वमस्ति तत् केवलं रूपं भवेत् यत्र रूपमस्ति अत्र त्रयमपि अस्ति यत्र त्रयमपि अस्ति तत्र तद् रूपमेव भवेत् इति अस्माकं चिन्तनं यदि तद् साधयामः तदा लक्षणं समीचीनम् इति वक्तुं शक्नुमः चित्रस्य अवगमनं भवति खलु अपि अस्माकं कार्यं दलसार्थक्यं नाम एतत् चित्रं समीचीनम् इति यदि प्रदर्शयामः तदेव दलसार्थक्यं यत्र ग्राह्यत्वम् अग्राह्यत्वम् अपि गुणत्वम् अस्ति तत् केवलं रूपमस्ति रूपमिति तत्र पीतवर्णेन निर्दिष्टः अस्ति यत्र पीतवर्णः अस्ति अत्र तत्र सर्वत्र ग्राह्यत्वम् अग्राह्यत्वं गुणत्वम् अस्ति इति चिन्तनम् अतः रूपं सर्वत्र अस्ति अत्र सर्वत्र अस्ति अस्तु इदानीं दलं तत्र वयं दलसार्थक्यं नाम प्रथमदलम् अस्ति चेत् ग्राह्यत्वम् अस्ति चेत् तस्य क्षेत्रः बृहत् अस्ति इति प्रदर्शनं नाम तत्र ग्राह्यत्वं रूपभिन्ने अपि अस्ति केवलं द्वितीयदलं स्वीकुर्मश्चेत् अग्राह्यत्वं रूपभिन्नेषु अपि अग्राह्यत्वम् अस्ति इति प्रदर्शनीयं तृतीयम् अस्ति दलं केवलं तृतीयदलम् अस्ति चेत् रूपभिन्नपदार्थेषु अपि गुणत्वम् अस्ति इति प्रदर्शनीयं भवति यदि तत्र दलद्वयमस्ति प्रथमदलं द्वितीयदलम् अस्ति चेत् तत्र क्षेत्रम् एतादृशमस्ति तत्र दोषः भवति अतिव्याप्ति दोषः भवति नाम रूपम् अत्र अस्ति किन्तु ग्राह्यत्वम् अग्राह्यत्वं भिन्ने पदार्थे अपि अस्ति इति प्रदर्शनीयं भवति तथैव प्रथमदलं तृतीयदलम् अस्ति चेत् तस्य क्षेत्रः क्षेत्रं बृहत् अस्ति अन्यत्र अपि दलद्वयम् अस्ति नाम रूपभिन्नपदार्थे अपि प्रथमदलम् अस्ति तृतीयदलम् अस्ति इति प्रदर्शनीयं भवति तथैव अन्तिम तत्र द्वितीयदलं तृतीयदलम् इति तत्र षड्विधाः षड् सन्दर्भाः इदानीं समीचीनमस्ति वा इदानीं तत्र एकमेकं स्वीकृत्य वदामः इदानीं अस्तु तर्हि तत्र अस्तु तत्र अहं किं कृतवान् अस्तु अस्तु इदानीम् एतस्य इदानीम् एतत्तु तस्य आवश्यकता नास्ति तर्हि त्यजामः एतत् दोष अस्तु अस्तु एकनिमिष अस्तु तर्हि तत्र वयं गतवर्गे किम् अवगतवन्तः तत्र प्रथमदलम् अस्ति चेत् प्रथमदलं केवलं प्रथमदलम् अस्ति चेत् ग्राह्यत्वम् इति प्रथमदलम् अग्राह्यत्वम् इति द्वितीयदलं गुणत्वम् इति तृतीयदलम् अस्ति तर्हि तत्र अतिव्याप्तिदोषः अस्ति इति ज्ञातवन्तः तर्हि किमस्ति अत्र यस्मिन् ग्राह्यत्वम् अस्ति किन्तु रूपं नास्ति कोऽपि वदति वा अत्र किमस्ति रूपं हा समीचीनं घटे हा उत्तमं भगिनि विमला भगिनी हा घटे अतिव्याप्तिः अस्ति यतोहि घटः इति पदार्थः अत्र अस्ति रूपं नास्ति किन्तु घटे ग्राह्यत्वम् अस्ति अतः अतिव्याप्तिदोषः अस्ति यः कोऽपि पदार्थः चक्षुषा गृह्यते सः पदार्थः तु तत्र तस्मिन् पदार्थे अतिव्याप्तिदोषः भवति चक्षुर् इन्द्रिय ग्राह्यत्वम् इति एतत् क्षेत्रं तर्हि घटः अत्र अस्ति घटः रूपं नास्ति इति कृत्वा अतिव्याप्तिदोषः भवति हा इदानीम् अग्राह्यत्वम् इति द्वितीयदलं केवलं द्वितीयदलम् अस्ति चेत् रूपम् अत्र अस्ति किन्तु अतिव्याप्तिदोषः अस्ति इति वक्तुम् इच्छामः तर्हि किमपि भवेत् यस्मिन् अग्राह्यत्वम् अस्ति चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं भिन्नेन्द्रिय अग्राह्यत्वं तर्हि तत्र अत्र किमस्ति यत् रूपं नास्ति कोऽपि पदार्थः अस्ति वा
गुरुत्वं
हा गुरुत्वम् इति स्वीकृतवन्तः अपि तत्र आकाशः आकाशे तत्र अग्राह्यत्वम् अस्ति वा आकाशः तत्र घ्राणेन्द्रियेण गृह्यते वा आकाशः
न गृह्यते
तत्र अतीन्द्रियः अस्ति आकाशः अतीन्द्रियः अस्ति अतः आकाशः कालः दिक् एतत् सर्वम् अग्राह्यत्वं तेषु अग्राह्यत्वम् अस्ति तर्हि अत्र हा एकं कुर्मः तत्र लिखामः साक्षात् तत्र तर्हि तत्र घटः इति पदार्थः अत्र अस्ति अत्र आकाशः इति पदार्थः अस्ति कालः अपि अत्र अस्ति आत्मा अपि अस्ति अतः तत्र अनेके पदार्थाः अत्रापि सन्ति तर्हि अतिव्याप्तिदोषः अत्रापि अस्ति हा इदानीं तत्र तृतीयदलम् अस्ति गुणत्वं रूपे गुणत्वम् अस्ति रूपं विहाय अन्यत्र गुणत्वम् अस्ति वा
अन्ये त्रयोविंशति
हा सङ्ख्यायां हा सङ्ख्यायां संयोगे अतः तत्र अन्ये गुणाः अपि सन्ति इति कृत्वा तत्र अतिव्याप्तिदोषः भवति तर्हि केवलम् उदाहरणार्थं कः गुणः भवेत् तत्र सङ्ख्या इति स्वीकुर्मः अथवा तत्र असंयोगः संयोगः इति स्वीकुर्मः इति गुणः तर्हि संयोगः तु गुणः अस्ति किन्तु संयोगः रूपं नास्ति इति कृत्वा तत्रापि तत्र गुणत्वं वर्तते तत्र केवलं गुणत्वम् इति वदामश्चेत् तत्र अतिव्याप्तिदोषः भवति तर्हि गुणत्वम् इति दले केवलं गुणत्वम् इति दलं भवति चेत् संयोगे अतिव्याप्तिः अतः गुणत्वम् इति दले अतिव्याप्तिदोषः भवति केवलम् अग्राह्यत्वम् इति लक्षणम् आसीत् चेत् तर्हि आकाशे अतिव्याप्तिः अतः केवलम् अग्राह्यत्वम् इति दलम् अस्ति चेत् अग्राह्यत्वम् इति दले अतिव्याप्तिदोषः केवलं ग्राह्यत्वम् इति लक्षणम् आसीत् चेत् घटे अतिव्याप्तिः अतः ग्राह्यत्वम् इति लक्षणे अतिव्याप्ति दोषः इति अस्माकं व्यवहारः भवति अस्तु इदानीं तत्र दलद्वयं यत्र भवति तेषां परिशीलनं कुर्मः अस्तु इदानीं तत्र एतावत् एतत् कृतवन्तः इदानीं तत्र यत्र दलद्वयमस्ति तयोः तत्र इदानीं परिशीलनं भवति. अस्तु, हा तर्हि तत्र एतावत्. तर्हि तत्र हा प्रेमदत्त भगिनी, तर्हि तत्र
महोदय श्रूयते वा महोदय?
इदानीं श्रूयते भगिनि. हा पूर्वं न श्रुतं किन्तु इदानीं श्रूयते भगिनि. हा अतः आरभ्य पठतु भगिनि. हा दृश्यते, दृश्यते वा भगिनि? किम् अभवत्?
चक्षुरिन्द्रियनिष्ठजनकता निरूपित जन्यताश्रय प्रत्यक्षविषयत्वं चक्षुर्भिन्नेन्द्रियनिष्ठजनकतानिरूपित आश्रय जन्यताश्रय प्रत्यक्षविषयत्व अभावः इति एतत् दलद्वयमेव अस्तु लक्षणमिति चेत् रूपे विद्यमाना या रूपत्वजातिः तस्याम् इति व्याप्ति भव इति व्याप्तिः
अतिव्याप्तिः
तस्याम् अतिव्याप्तिः तथा
इति अस्ति. इदानीम् एक हा तावदेव. इदानीं तत्र प्रथमदलं द्वितीयदलं किं वदति? प्रथमदलं किम् अस्ति?
चक्षुरिन्द्रियग्राह्यत्वं वदति
प्रथमदलं. समीचीनं, चक्षुरिन्द्रियग्राह्यत्वं.
द्वितीयदलं चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम्
किं दलं त्यक्तवन्तः? किं दलं त्यक्तवन्तः इदानीं?
गुणत्वं,
गुणत्वं त्यक्तवन्तः. समीचीनम्. अतः तत्र इदानीं वयं चिन्तयामः लक्षणमस्ति चक्षुरिन्द्रियग्राह्यत्वं, चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इति चिन्तयामः. तर्हि केवलम् एतद् दलं द्वयमस्ति चेत् इदानीं तत्र रूपे
रूपत्व एतद्वयमेव अस्तु लक्षणमिति चेत् रूपे विद्यमाना या रूपत्वजातिः तस्याम् अतिव्याप्तिः.
इदानीं तर्हि तत्र यदि भवती पुस्तकं पश्यति, पुस्तकं पश्यति, पुस्तकस्य ज्ञानम् अस्ति खलु भवत्याः तदा? हा तर्हि भवती जानाति एतत् पुस्तकम् अस्ति. तर्हि एतत् पुस्तकमस्ति, एतत् तु लेखनी नास्ति इति भवती जानाति. नाम भवती पुस्तके विद्यमान पुस्तकत्वम् इति जातिः तस्य ज्ञानम् अस्ति तदा खलु?
आं महोदय.
हा तर्हि पुस्तकस्य ज्ञानं यदा भवति तदा किं भवति? तस्मिन् पदार्थे पुस्तकत्वम् इति धर्मः इति जातिः वर्तते इति जानाति खलु?
आं महोदय.
तदा अतः तत्र पुस्तकत्वम् इति जातिः तस्याः अपि तत्र ग्रहणं भवति खलु? चक्षुरिन्द्रियेण यदा भवती तत्र पुस्तकं पश्यति, नाम पुस्तकस्य ग्रहणं पुस्तकं ग्राह्यं भवति चक्षुषा, तदा पुस्तकत्वमपि ग्राह्यं भवति. खलु? अस्तु इदानीं हा तर्हि इदानीम् अत्र किम् उक्तमस्ति? रूपत्वम् इति जातिः तस्याम् अतिव्याप्तिः अस्ति. नाम रूपत्वम् इति जातिः यदस् या अस्ति तस्यां चक्षुर्ग्राह्यत्वम् अस्ति, चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् अस्ति अपि इति दलद्वयमपि अस्ति इति उक्तं खलु? तत् कथं? हा तत् कथम् इति इदानीम् अग्रे पठतु भगिनि. हा तथा हि
यथा घटे विद्यमानं रूपं चक्षुरिन्द्रियेण गृह्यते तथा तद्वृत्तिरूपत्वजातिरपि गृह्यते. न हि सा चक्षुषः इतरैः ग्राणादिभिः इन्द्रियैः ज्ञातुं न शक्या
ज्ञातुं शक्या
तत् अग्रे पठामि वा महोदय
न पठतु पठतु
तथा च तस्यां जातौ प्रथमदलं चक्षुर्ग्राह्यत्वं वर्तते एवं चक्षुर्बिन्देन्द्रिय अग्राह्यत्वरूपं द्वितीयं दलमपि अस्ति अतः रूपस्य अतिव्याप्तिः एतद् प्रथमद्वितीयदलमेव लक्षणमस्तु इति स्वीक्रियते चेत् प्रथमदलस्य चक्षुर्ग्राह्यत्वम् इति प्रथमदलं चक्षुर्ग्राह्यत्वं रूपस्य अपि भवति
तत्र नाम यदि वयं घटं पठामः पश्यामः नीलघटं पश्यामः यदि नीलघटं पश्यामः तदा तत्र अस्मिन् घटे नीलरूपम् अस्ति इति ज्ञानं भवति खलु नाम तत्र रूपमस्ति नीलः नीलरूपम् अस्ति इति तदा तत्र नीलत्वं रूपे विद्यमाना जाति तत्र नीलत्वम् इति अस्ति इति अपि जानीमः खलु
महोदय
तर्हि अत्र तद् वृत्ति तत्र एकवारं पुनः पठतु भगिनि तथा हि इति आरभ्य
तथा हि यथा घटे विद्यमानं रूपं चक्षुरिन्द्रियेण दृश्यते तथा तद्वृत्तिरूपत्वजाति अपि दृश्यते
तत्र तद् यथा रूपं गृह्यते तथा तद् वृत्ति तत्र तद् नाम किं
घटे विद्यमान
रूपे विद्यमान
रूपे विद्यमान रूपत्वमपि गृह्यते
तत्र रूपं रूपमिति प्रथमभागे आसीत् तदेव इदानीं तत्र तद् रूपवृत्तिरूपत्वजातिः अपि गृह्यते समीचीनं अपि न हि
इतरे चक्षुषः अत्र चक्षुषः इति पञ्चमे इति मन्ये
सत्यं सत्यं भगिनि उत्तमं पञ्चमे
इतरैः ज्ञानादिभिः इन्द्रियैः ज्ञातुं शक्या न शक्य इतरग्राणेन्द्रिय चक्षुष भिन्न इन्द्रियं ग्राणम् अपि अत्र उदाहरणं नीत्वा
स्वीकुर्मः
रूपत्वम् इति जाते ग्राणेन्द्रियेण न ग्राह्यं भवति
नाम तत्र रूपं नीलरूपम् अस्ति इति तद् ग्राणेन्द्रियेण न ज्ञातुं शक्नुमः तत्र किम् अस्ति नीलरूपं तस्य ज्ञानं भवति चेत् नीलत्वम् इति ज्ञानं भवति नीलत्वम् इति ज्ञानं भवति चेत् नीलम् इति तस्य ज्ञानं भवति रूपं नीलम् इति खलु अतः तत्र चक्षुरिन्द्रियेण रूपस्य ग्रहणं न भवति अतः तत्र नीलत्वम् इति तत्र रूपत्वम् इति तत्र जातिः अपि तत्र न तत्र तस्य ग्रहणं न भवति अतः किं भवति रूपत्वम् इति जात्यां किम् अस्ति इदानीम् अतिव्याप्तिः अस्ति यतोहि जातौ तत्र जातौ किमस्ति चक्षुर्ग्राह्यत्वम् अस्ति अपि चक्षुर्मिन्नेन्द्रिय अग्राह्यत्वम् अपि अस्ति समीचीनम् इदा अपि तत्र रूपत्वं तत्र गुणमस्ति वा
रूपत्वम् इति धर्मः अस्ति
जातिः अस्ति सामान्यमस्ति किन्तु तत्तु जातिः अस्ति तत्र तत्तु गुणः नास्ति अतः रूपत्वम् इति भिन्नः पदार्थः लक्ष्य अलक्ष्यपदार्थः अलक्ष्यमस्ति खलु लक्ष्यमस्ति रूपं किन्तु रूपत्वम् अलक्ष्यमस्ति अलक्ष्ये प्रथमदलमपि अस्ति द्वितीयदलमपि अस्ति अतः इदानीं केवलं प्रथमद्वितीयदलम् इति चिन्तयामश्चेत् रूपत्वे अतिव्याप्तिः अतः अतिव्याप्तिदोषः भवति दलद्वयस्य स्वीकारेण
निवारणेन किमपि योजयितुम् अत्र
हा अत्र निवारणं किं कुर्मः तत्र रूपत्वं गुणः नास्ति इति कृत्वा यदि वयं गुणत्वम् इति योजयामः किं भवति
तदायदलं योजनेन तृतीयदलं योजितं भवति अत्र
यदि योजयामः यदि तृतीयदलं योजयामः एतत् उदाहरणम् अपगच्छति रूपत्वम् इति उदाहरणम् अपगच्छति अन्यत्र भवेत् न वा इति चिन्तनीयमस्ति किन्तु रूपत्वमिति यद् उदाहरणे तत्र अस्मिन् उदाहरणे अतिव्याप्तिः अस्ति एतत् उदाहरणम् अपगच्छति रूपत्वं यदि गुणत्वम् इति योजयामः तत्र गुणत्वं तु रूपत्वे नास्ति एतत् उदाहरणं न भवति उदाहरणम् अपगच्छति तदा हा अस्तु समीचीनम् अस्तु धन्यवादः भगिनि अस्तु इदानीं तत्र एषः एव भागः तत्र विमला भगिनी स्वशब्दैः तत्र एकवारं वदति वा यदि प्रथमदलं द्वितीयदलम् एवं केवलम् अस्ति चेत् तत्र
आम् महोदय केवलं प्रथमदलमस्ति चेत् चक्षुरेन्द्रियनिष्ठजनकता निरूपितजन्यताश्रय प्रत्यक्षविषयत्वमिति अस्ति चेत्
अपि
घटयति व्याप्तिः भवति द्वितीयदलं स्वीकुर्मः चेत् केवलं द्वितीयदलं दलस्य स्वीकरणेन अग्राह्यम् इत्युक्ते आकाश गुरुत्वम् तेषाम् एतयोः एतेषु अपि अतिव्याप्तिः भवति यदि प्रथम अपि द्वितीयदलं स्वीकुर्मः तर्हि रूपत्व इति जातिषु रूपे जाति अस्ति रूपत्वजाति तस्मिन् अतिव्याप्तिः भवति
किमर्थम् इति एकवारं वदतु
रूपे रूपत्वमस्ति केवलचक्षुरेन्द्रियेण ग्रह्यते द्वितीयदलम् अग्राह्यमिति यदस्ति चक्षुर्भिन्न इन्द्रियैः अग्राह्यत्वम् इति अस्ति तत् अत्र न कार्यं करोति
नीलघटः अस्ति अथवा तत्र
नीलघटेषु
रक्तवर्णपुष्पम् अस्ति
अस्तु
रक्तवर्णपुष्पमस्ति
रक्तरूपमस्ति रक्तरूपं चक्षुषा गृह्यते अपि तस्य जातिः अपि रक्तस्य जातिः रक्तत्वस्य जातिः अपि चक्षुषा गृह्यते परन्तु अन्य इन्द्रियैः न गृह्यते
नाम तत्र रक्तरूपमस्ति इति तत्र त्वगिन्द्रियेण न ज्ञातुं शक्नुमः
त्वग्रसना अन्य कोऽपि इन्द्रियेण ज्ञातुं शक्यते
अतः तत्र रूपत्वे तत्र अग्राह्यत्वमस्ति चक्षुर्भिन्नेन्द्रिय
अग्राह्यत्वम्
अपि चक्षुरिन्द्रियेण ग्राह्यम् अस्ति अपि तत्र रूपत्वम् इति अतिव्याप्तिः इति वदामः यतोहि तत्र रूपत्वम् अलक्ष्यम् अस्ति रूपं भिन्नमस्ति
रूपत्वं
भिन्नमस्ति भिन्नमस्ति रूपं गुणः अस्ति रूपत्वं गुणः जातिः अस्ति अतः तत्र अतिव्याप्ति दोषः भवति समीचीनं उत्तमं भगिनि धन्यवादः तत्र आकाशः न स्वीकर्तुं शक्नुवन्तः यतोहि तत्र आकाशे यदि द्वितीयदलम् एव अस्ति तत्र आकाशे अग्राह्यत्वम् अस्ति किन्तु आकाशे चक्षुरिन्द्रिय अग्राह्यत्वं नास्ति खलु अतः आकाशः इति उदाहरणं तत्र न स्वीकर् तत्र न अन्यत् उदाहरणम् आवश्यकम् आसीत् अस्तु समीचीनं इदानीं धन्यवादः भगिनि अस्तु इदानीम् अग्रे सरामः तर्हि तत्र तर्हि तत्र नरसिंह महोदय इदानीं तत्र प्रथमं तृतीयदलम् अस्ति चेत् का स्थितिः इति नरसिंहमहोदय अस्ति वा अस्तु तर्हि तत्र नीता भगिनी
आम् प्रथम प्रथमदलमस्ति अत्र ग्राह्यत्वे
अस्तु 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 महोदय तद् अनन्तरं वदतु तर्हि
प्रथमदल अस्ति चक्षु इन्द्रियैः ग्राह्यं द्वितीयदलमस्ति चक्षु भिन्न इन्द्रियैः न ग्राह्यम्
इदानीं तृतीयदलं
तृतीयदलं रूपम् इति अस्ति इति अस्ति इदानीं यदि प्रथमदल द्वितीयदल स्वीकुर्मः चेत्
तद् कृतं तत् कृतम् इदानीं नूतनं प्रथमदलं तृतीयदलम् अस्ति चेत् पठतु भगिनि
अत्र स्क्रीन् उपरि करोति वा किञ्चित्
इदानीं सम्यक् अस्ति वा
यदि प्रथम तृतीय इयम् अतिव्याप्तिः द्वितीयदलम् अपसार्य तृतीयं यद् गुणत्वरूपं दलं तन्निवेशेन वार्यते यतोहि रूपत्वे चक्षुर्ग्राह्यत्वं यद्यपि वर्तते गुणत्वं न वर्तते गुणत्वस्य गुणेषु एव सत्त्वात् रूपत्वस्य जातित्वेन तत्र गुणत्व अभावात् अतश्च न रूपत्वे अतिव्याप्तिः इदानीं प्रथमदलं यदि स्वीकुर्मः चेत् चक्षु इन्द्रियैः ग्राह्यत्वं प्रथमदलस्य योजना तृतीयदल सह वयं कुर्मः चेत् तत्र गुणत्वमस्ति इत्युक्ते अत्र चक्षु इन्द्रियैः ग्राह्यं रूपम् इति गुणं गुणत्वं तत् यत् चक्षु इन्द्रियैः ग्राह्यम् अस्ति यस्य गुणत्वमस्ति
इदानीं तत्र अतिव्याप्तिदोषः इयम् अतिव्याप्तिदोषः नाम किम् इयम् अतिव्याप्तिः का आसीत्
इत्युक्ते यदा प्रथमदल तृतीयदल एवं वयं स्वीकुर्मः चेत् तत्र
क्षम्यतां भगिनि तत्र प्रायश तत्र मम दोषः एव आसीत् तत्र एतावत् तत्र वयम् एतावत् पठितवन्तः खलु तत्र एतावत् पठितवन्तः भवती तत्र अतः आरभ्य पठितवती खलु अत्र एतावत् तत्र किम् आसीत् प्रथमदलं द्वितीयदलम् अस्ति चेत् तर्हि रूपत्वे अतिव्याप्तिः खलु तर्हि रूपत्वे अतिव्याप्तिः अस्ति केवलं प्रथमदलम् अपि द्वितीयदलम् अस्ति चेत् खलु इदानीम् इयम् अतिव्याप्तिः किं भवति
अतिव्याप्ति ओके सो यदि प्रथमदल द्वितीयदल स्वीकुर्मः चेत् यत् अतिव्याप्तिः भवति इयम् अतिव्याप्ति द्वितीयदलम् अपसार्य तृतीयं यत् गुणत्वरूपं दलं द्वितीयदलम् अपसार्य इत्युक्ते चक्षुभिन्ने इन्द्रियैः अग्राह्यत्वं द्वितीयदल तत् द्वितीयदलम् अपसार्य तृतीयं यत् गुणत्वरूपं दलम् इत्युक्ते तत्र प्रथमदल द्वितीयदल तृतीयदल एवमस्ति
अपसार्य नाम त्यक्त यदि त्यजामः
सो इत्युक्ते अत्र प्रथमदल तृतीयदल स्वीकुर्मः चेत् तत्र द्वितीयदलस्य त्यजनं भवति तन्निवेशेन वार्यते तत् अतिव्याप्तिः वारणं भवति इत्युक्ते तस्य तत् न भवति यत्
अतिव्याप्ति इदानीं नास्ति इदानीं अतिव्याप्तिः न भवति किमर्थं
तत् यतोहि रूपत्वे चक्षुर्ग्राह्यत्वं यद्यपि वर्तते गुणत्वं न वर्तते इत्युक्ते अत्र प्रथम तृतीय तत् चक्षु इन्द्रियैः ग्राह्यत्वं चक्षु इन्द्रियैः ग्राह्यत्वं रूपत्वे वर्तते किन्तु तत्र गुणत्वं न वर्तते इति दत्तमस्ति
खलु तर्हि तत्र रूपत्वे रूपत्वं रूपत्वम् इति पदार्थे अतिव्याप्तिः अस्ति खलु रूपत्वे ग्राह्यत्वम् अस्ति अग्राह्यत्वम् अपि अस्ति खलु अतः यदि केवलं प्रथमद्वितीयदलं स्वीकुर्मः तदा किं भवति अतिव्याप्तिः भवति रूपत्वे इदानीं तस्य यदि तृतीयदलं योजयामः किं भवति
रूपत्वे योजयामः चेत्
रूपत्वे तत्र तृतीयदलम् अस्ति वा गुणत्वम् अस्ति वा रूपत्वे रूपम् इति गुणः अस्ति रूपम् इति गुणः अस्ति गुणे गुणत्वम् अस्ति खलु किन्तु तर्हि तत्र रूपमस्ति रूपं क्षम्यतां रूपम् अस्ति रूपे
रूपत्वमस्ति
न न न रूपं रूपे रूपम् इति गुणः अस्ति तर्हि रूपे गुणत्वम् अस्ति खलु
आम्
इदानीं रूपे रूपत्वम् अस्ति
रूपे रूपत्वमस्ति
खलु किन्तु प्रश्नः इदानीम् अस्ति किं गुणत्वं रूपत्वे अपि अस्ति वा इति प्रश्नः
इति दत्तमस्ति किन्तु तत् सम्यक्तया न अवगतं
अतः अग्रिमवाक्यं पठतु हा
गुणत्वस्य गुणेषु एव सत्वत् सत्वात्
नाम पुस्तकत्वं कुत्र भवति
पुस्तके
पुस्तके एव खलु तत्र लेखन्यां पुस्तकत्वं न भवति खलु
न भवति
तर्हि गुणत्वं कुत्र भवति गुणेषु एव गुणं यदि किमपि गुणं नास्ति तत्र गुणत्वं न भवति खलु इदानीं तत्र रूपत्वं किमस्ति रूपत्वस्य
रूपत्वस्य जातित्वेन तत्र गुणत्व अभावात्
नाम रूपत्वम् इति वदतु
रूपत्वम् इति जाति इति स्वीकुर्मः चेत् तत्र
तत्र रूपत्वम् इति जातिः एव खलु नाम रूपत्वधर्मः तत्र गुणत्वस्य अभावः तत्र तस्मिन् गुणत्वं नास्ति किमर्थं रूपत्वे गुणत्वं नास्ति किमर्थं
समानजाति इति नास्ति इति
न नाम रूपम् इति गुणः अस्ति गुणे गुणत्वम् अस्ति खलु इदानीं तत्र पुस्तकम् इति स्वीकुर्मः पुस्तकं किं पुस्तके गुणत्वम् अस्ति वा
न तत्र पुस्तकत्वमस्ति
किन्तु गुणत्वं किमर्थं नास्ति
तत्र समानजाति इति
सरलमस्ति भगिनि नाम रूपमिति गुणः अस्ति खलु अतः रूपे गुणत्वम् अस्ति खलु पुस्तकमिति कीदृशपदार्थः गुणः वा द्रव्यं वा किम् अस्ति पुस्तकं
पुस्तकं
द्रव्यमस्ति गुणः नास्ति खलु गुणः नास्ति खलु पुस्तकं
गुणः नास्ति द्रव्यमस्ति
पुस्तकं द्रव्यमस्ति पुस्तकं द्रव्यमस्ति गुणः नास्ति इति कृत्वा गुणत्वं पुस्तके नास्ति खलु नाम गुणत्वं किमर्थं पुस्तके नास्ति यतोहि पुस्तकं गुणः नास्ति इदानीं रूपत्वम् इति गुणः अस्ति वा रूपत्वम् इति गुणः
अस्ति गुणः अस्ति
न न रूपम् इति गुणः अस्ति रूपत्वम् इति जातिः अस्ति
यतः
यतः पुस्तकम् इति भिन्नमस्ति पुस्तकत्वम् इति भिन्नमस्ति खलु भगिनि पुस्तकम् इति द्रव्यं पुस्तकत्वम् इति जातिः खलु नाम जातिः भिन्नः जातिः इति द्रव्यं नास्ति खलु जातिः इति समानधर्मः यः धर्मः सर्वेषु पुस्तकेषु वर्तते सः धर्मः पुस्तकत्वं खलु तर्हि पुस्तकत्वं भिन्नमस्ति पुस्तकं भिन्नमस्ति खलु तथैव रूपं भिन्नमस्ति रूपत्वं भिन्नमस्ति खलु रूपम् इति साक्षात् गुणः अस्ति रूपत्वम् इति गुणः नास्ति रूपत्वम् इति रूपे सर्वे रूप तत्र सर्वेषु रूपेषु विद्यमानः धर्मः अस्ति तर्हि रूपत्वम् इति गुणः नास्ति रूपत्वम् इति गुणः नास्ति चेत् किं तस्मिन् गुणत्वं भवति वा न
भवति
अतः एव तत्र यदि तृतीयदलं योजयामः गुणत्वम् इति दलं योजयामः तर्हि रूपत्वे अतिव्याप्तिदोषः अतिव्याप्तिः या आसीत् सा अतिव्याप्तिः इदानीं धार्यते नाम रूपत्वे ग्राह्यत्वमस्ति चक्षुरेन्द्रियग्राह्यत्वमस्ति किन्तु गुणत्वं नास्ति गुणत्वं तत्र एतत् नास्ति अत्र गुणत्वं रूपे अस्ति किन्तु गुणत्वं रूपत्वे नास्ति अतः तत्र यदि गुणत्वम् इति तृतीयदलं योजयामः रूपत्वम् इति अस्मिन् पदार्थे अतिव्याप्तिः या आसीत् सा अपगच्छति सा निवार्यते अतः रूपत्वे इदानीं तृतीयदलस्य योजनेन रूपत्वे अतिव्याप्तिः इदानीं नास्ति नास्ति अतिव्याप्तिः केवलम् एकनिमिषे तत्र चित्रं दृष्ट्वा वयम् एतद् वक्तुं शक्नुमः तत्र यदि प्रथमदलं द्वितीयदलम् अस्ति चेत् तत्र वयं किम् उक्तवन्तः अस्मिन् देशे तत्र अस्मिन् भागे रूपत्वम् अस्ति इति उक्तवन्तः खलु नाम एतत् क्षेत्रम् अस्मिन् क्षेत्रे प्रथमदलमपि अस्ति द्वितीयदलमपि अस्ति खलु
आं ग्राह्यत्वम् अपि चक्षु इन्द्रियैः ग्राह्यत्वं चक्षुभिन्न इन्द्रियैः अग्राह्यत्वम् इति अस्ति
इति उक्तवन्तः अतः अस्मिन् क्षेत्रे रूपत्वम् अस्ति इति जानीमः खलु किन्तु इदानीं किं वदामः अस्तु अस्मिन् क्षेत्रे रूपत्वं तु अस्ति किन्तु रूपत्वं कुत्र अस्ति इत्युक्ते रूपत्वम् अत्र अस्ति यतोहि रूपत्वे तृतीयदलं नास्ति अतः तृतीयदलस्य बहिः अस्ति अतः रूपत्वम् अत्र अस्ति अतः तत्र यदि तृतीयदलं योजयामः किं भवति एषा अतिव्याप्तिदोषः अपगच्छति रूपत्वे अतिव्याप्तिः आसीत् सा तु अपगच्छति यदि तृतीयदलं योजयामः अतः रूपत्वम् इति रूपत्वे अतिव्याप्तिदोषः अस्ति यदि प्रथम अति द्वितीयदलं स्वीकुर्मः किन्तु यदि तृतीयदलं योजयामः किं भवति रूपत्वम् अपगच्छति अपि निवार्यते अपि तत्र सः लेखकः तत्र अन्यदपि उक्तवान् नाम यदि द्वितीयदलं त्यजामश्चेदपि तत्र रूपत्वम् अपगच्छति नाम तत्र केवलं तत्र प्रथम अपि तृतीयदलं योजयामः रूपत्वम् अत्र अस्ति तर्हि यदि केवलं प्रथम तृतीयदलम् अस्ति चेत् रूपत्वम् अत्र अस्ति अतः तत्र अतिव्याप्तिदोषः न भवति रूपत्वे अतिव्याप्तिदोषः न भवति किन्तु केवलं प्रथमतृतीयदलम् अस्ति चेत् अन्येषु पदार्थेषु अतिव्याप्तिदोषः भवति किन्तु एतावत् तद् न विषयः रूपत्वे अतिव्याप्तिदोषः यः आसीत् स निवार्यते यदि गुणत्वम् इति वदामः. अस्तु अस्तु तर्हि अस्तु भगिनि समीचीनं. अस्तु इदानीं तत्र अग्रे सरामः. तर्हि तत्र अग्रे तत्र शोभा भगिनी अग्रे पठति वा?
अहं पठामि महोदय इदानीं.
हा नरसिंहमहोदय, हा क्षम्यतां नरसिंहमहोदय. इदानीं तत्र एवमपि इति आरभ्य, हा अतः आरभ्य
एवमपि द्वीन्द्रियग्राह्यः ये सङ्ख्यादयो गुणः तेषु अतिव्याप्तिः. तथा हि भूतले द्वौ घटौ स्तः. कश्चित् चक्षुष्मान् मनुष्यः पृष्टः भूतले कति घटः इति. सः चक्षुः व्यापार्य अवगच्छति भूते च द्वौ घटौ इति. एवं च द्वित्वसङ्ख्याय तेन चक्षुषा जाता. अपरश्च कश्चित् अन्धः पृष्टः भूतले कति घटः इति. सः चक्षुर्व्यापारे असमर्थे असमर्थौ अपि हस्तौ पादौ वा चालयित्वा तत्र विद्यमानौ घटौ च अवलम्ब्य तत्र तत्रत्यां द्वित्वसङ्ख्यया अहं त्वगेन्द्रियेण जानाति भूते.
तत्र बृहत् करोमि, तत्र एकनिमिष, तत्र पूर्वमपि पृष्टमासीत् किमर्थं न कृतवन्ति, क्षम्यतां. हा इदानीं प्रायश तत्र बृहत् अभवत् अथवा न इदानीं तत्र
पर्याप्तं.
हा अस्तु अस्तु.
यत् सङ्ख्या चक्षुरिन्द्रियेण इव त्वगेन्द्रियेण अपि गृह्यते. एवं च प्रथमं तृतीयं चक्षुर्मातृग्राह्यम् एवं गुणत्वमिति दलद्वयस्य एव निवेशे सङ्ख्यायाम् अतिव्याप्तिः. यतः तस्याः चक्षुर्ग्राह्यत्वम् आनुभाविकं निरूपितं च. सा गुणः इति तत्र गुणत्वजातिरपि वर्तते. द्वितीयं तृतीयं दलं स्वीकारेण
पङ्क्तिशः पठित्वा वदतु महोदय. एवमपि इति आरभ्य
तीन्द्रियग्राह्य ये सङ्ख्यादयो गुणाः तेषु अतिव्याप्ति भवति.
यदा कदा भवति अतिव्याप्तिः, कदा दोषः कदा भवति?
यदा वयं द्वितीयं तृतीयं स्वीकुर्मः चेत् उपरि दृष्टं प्रथमं तृतीयं स्वीकुर्मः चेत् तत्र किं भवति, द्वीन्द्रियग्राह्या ये सङ्ख्यादयगुणाः तेषु अपि अतिव्याप्तिः भवति. प्रथमं तृतीयजलं किं भवति इत्युक्ते चक्षुर्मात्रग्राह्यं चक्षुर्ग्राह्यं गुणः इति अस्ति. परन्तु चक्षुर्ग्राह्यं केवलं रूप इति नैव नास्ति, तत्र सङ्ख्या अपि चक्षु तत्र चक्षुर्ग्राह्यगुण चक्षुरा गृह्यते. परन्तु इदानीं किं भवति, न केवलं रूपं सङ्ख्या अपि गृह्यते. तावत् नास्ति, इत्युक्ते चक्षुर्ग्राह्यं गुणम् इति अस्ति प्रथमं द्वितीयं स्वीकारेण. तत्र किं भवति, इत्युक्ते चक्षुर्ग्राह्यम् इत्युक्ते चक्षुर्भिन्नेन्द्रेण अग्राह्यतम् इति भवति अर्थः भवति. परन्तु सङ्ख्या
चक्षुर्ग्राह्यम् इति चक्षुर्ग्राह्यम् अस्तु, तत्र चक्षुर्ग्राह्यं प्रथमदलं चक्षुर्ग्राह्यं दृश्यते. तत्र चक्षुर्भिन्द्रियेण किं भवति इति न उक्तम्. चक्षुर्ग्राह्यम् इति दले केवलं चक्षुषः एव विषयः, भिन्नेन्द्रियेण तत्र किं भवति इति न उक्तं तत्र.
अतः
चक्षुषा चक्षुषा ग्राह्यम् इति प्रथमदलं, तत्र केवलं चक्षुषा किं भवति इति एव उक्तं. तृतीयदलमस्ति गुणत्वम्. इदानीं प्रथमदलं तृतीयदलम् एव स्वीकुर्मः, तदा किं भवति, तत्र सङ्ख्यादयो गुणाः ये सन्ति तेषु अतिव्याप्तिः. तर्हि सङ्ख्या इति स्वीकुर्मः, तत्र इदानीम् उदाहरणं किम् अस्ति तथा हि इति पठित्वा वदतु महोदय.
यदि भूतले द्वौ घट स्तः इति चेत् तत्र चक्षु अपि गृह्यते परन्तु चक्षु भिन्न त्वगिन्द्रियानपि वयं ज्ञातुं शक्नुमः. अत्र एक उदाहरणं दत्तमस्ति, एकम् अन्धस्य उदाहरणं दत्तमस्ति, एकः अन्ध अस्ति चेत्
तत्र पङ्क्तिशः पठित्वा सारांशत्वेन मास्तु, पङ्क्तिशः तत्र एकमेकं वाक्यं पठित्वा वदतु कः अर्थः इति.
चक्षुमान् मनुष्यः पृष्टः, यः मनुष्यः यत् तस्य चक्षुः अस्ति तस्य कश्चित् पृष्टः भूतले कति घटः इति. इदानीं सः चक्षुव्यापारे अवगच्छति, इत्युक्ते चक्षुषा दृष्ट्वा अवगच्छति भूते द्वौ घटौ इति, भूतले द्वौ घटौ इति चक्षुषा दृष्ट्वा एतत् वदति, सः वदति
चक्षुष्मान् मतु प्रत्यय चक्षुः यस्य अस्ति चक्षुमान् चक्षुष्मान्
एवञ्च द्वित्वसङ्ख्याय तेन चक्षुषा ज्ञाता, चक्षुषा एव ज्ञाता भूतले द्वौ घटौ स्तः इति, चक्षुषा दृष्ट्वा एव.
तत्र सङ्ख्या नाम एकं द्वे त्रीणि सर्वं तत्र चक्षुः चक्षुषा तस्य ज्ञानं भवति. तत्र पुस्तक तत्र कति पुस्तकानि सन्ति, पञ्चपुस्तकानि सन्ति इति वयं दृष्ट्वा वदामः. तर्हि सङ्ख्यायाः ग्रहणं, सङ्ख्या इति गुणमस्ति तस्य ग्रहणं चक्षुषा भवति. हा समीचीनम्, अग्रे.
अपरश्च कश्चित् अन्धः अन्धः पृष्ठ भूतले कति घटाः इति, कश्चित् अन्धः अस्ति तं यदि
अन्धं कोऽपि अन्धः पुरुषः अस्ति, यदि वयं तं पुरुषम् अन्धं पुरुषं पृच्छामः कति घटाः सन्ति तदा किं भवति, सः
तदा किं भवति इत्युक्ते सः अन्धः किं करोति, चक्षुर्व्यापारे सः असमर्थः अस्ति. किमर्थमित्युक्ते चक्षुः नास्ति तत्र. इदानीं सः किं करोति कति घटा इति द्रष्टुं वक्तुं हस्तौ या पादौ वा चालयित्वा, यदि हस्तः चालयति पादः चालयति तेन सः परीक्षां करोति कति घटाः सन्ति इति, चालयित्वा तत्र विद्यमानौ घटौ च उपलभ्य तत्रत्यां तादृशविधानेन सः अनुभवति द्वौ घटौ इति. द्वित्वसङ्ख्या
नाम तत्रत्यां नाम किम् अस्ति, तत्रत्यां
तत्र
तत्र नाम घटौ तत्र घटेषु तत्र घटेषु विद्यमानसङ्ख्या सङ्ख्यां सः जानाति. तत्र तत्रत्यां नाम तत्र घटेषु तत्र घटयोः मध्ये विद्यमानः तत्र सङ्ख्या गुणः द्वित्वसङ्ख्यां सः जानाति त्वगिन्द्रेण. तत्र नाम
तत्रत्याम् इत्युक्ते तत्र विद्यमानः इति
तत्र तत्र विद्यमान द्वित्वसङ्ख्याम् अपि सः त्वगिन्द्रेण जानाति.
यतो हि चक्षुः नास्ति चेदपि सः जानाति अन्धः.
यदि वयं तत्र अन्धकारे यदि कोऽपि पृच्छति तत्र कति पुस्तकानि सन्ति चेत् वयं हस्तेन तत्र परीक्षां कृत्वा वक्तुं शक्नुमः खलु, तत्र पुस्तकद्वयमस्ति वा पुस्तकत्रयमस्ति वा इति वक्तुं शक्नुमः खलु.
आमाम्
अन्धकारे अपि अतः तत्र त्वगिन्द्रेण सः जानाति, अतः तत्र ब्रूते च द्वौ घटौ इति. अतः
यत्र तत्र यदा विद्युच्छक्तिः गच्छति चेत् तर्हि केण्डल् कुत्र अस्ति इति वयं स्पर्शेन्द्रेण
इति अस्ति. समीचीनम्. अनेन
त्वगिन्द्रेण जानाति भूते च द्वौ घटौ, भूतले इत्युक्ते भूतले द्वौ घटौ स्तः इति सः जानाति अन्धः मनुष्यः अपि. अनेन इदम् अवगच्छामः यत् सङ्ख्या चक्षुरिन्द्रियेण इव त्वगेन्द्रियेणापि गृह्यते इति गुणः अस्ति, यत् त्वगेन्द्रियेण अपि ग्रहतुं ग्रहीतुं शक्नुमः चक्षुन्द्रियेणापि त्वगेन्द्रियेण अपि ग्रहीतुं शक्नुमः इति सङ्ख्या इति पुनः
अतः एवं च
श्रूयते श्रूयते महोदय
श्रूयते महोदय श्रूयते एवं च
एवञ्च तृतीयं
इदानीं न श्रूयते महोदय अस्तु अस्तु तर्हि अन्य कोऽपि वदेत्
चक्षुर्ग्राह्यत्वम् एवं गुणत्वमिति गुणत्वमिति दलद्वयस्यमेव निमेषे सङ्ख्यायाम् अतिव्याप्ति इदानीं किं भवति प्रथम अनन्तरं तृतीय एव स्वीकुर्मः इत्युक्ते चक्षुर्ग्राह्यम् अनन्तरं गुण इति स्वीकुर्मः चेत् सङ्ख्या इति गुणः चक्षुर् अपि गायते चक्षुषा अपि गायते त्वगेन्द्रेण अपि गायते अत्र सङ्ख्यायाम् अतिव्याप्ति भवति
समीचीनं तर्हि तत्र प्रथमदलं तृतीयदलं स्वीकुर्मश्चेत् तत्र सङ्ख्यायाम् अतिव्याप्तिः अस्तु इदानीं तत्र एतदेव अन्य कोऽपि वदेत् तर्हि तत्र धन्यवादः महोदय अस्तु इदानीं तत्र अस्तु तत्र कः वदति तत्र धनश्री भगिनी वदति वा तत्र का स्थितिः अत्र अस्ति यदि प्रथम अपि तृतीयदलं स्वीकुर्मश्चेत् किं भवति इति उक्तं पुनः वदति वा स्वशब्दैः न श्रूयते भगिनि
नमस्ते
नमस्ते इदानीं श्रूयते
श्रूयते प्रथमं दलमस्ति चक्षुषा ग्राह्यत्वम् अनन्तरं तृतीयदलमस्ति गुणत्वम् अत्र स्थितिः अस्ति प्रथमं च तृतीयं प्रथमं तृतीयं चापि यदि स्वीकुर्मः नाम चक्षुर्ग्राह्यत्वम् एवं गुणत्वम् इति दलद्वयम् इति स्वीकुर्मः तर्हि तत्र सङ्ख्यायाम् अतिव्याप्तिः भवति इति सारांशः तत्र उदाहरणमस्ति यत् वयं सङ्ख्या अस्ति यदि द्वौ घटौ स्तः तत्र वयं चक्षुषा अपि तत् वक्तुं शक्नुमः द्वौ स्तः इति त्वचा अपि तत्र स्पर्शेन वयं ज्ञातुं शक्नुमः द्वौ घटौ स्तः इति अतः तत् अतः चक्षुषा तु सङ्ख्या ग्राह्यते चक्षुर्भिन्नयः त्वगिन्द्रिय अस्ति तया अपि सङ्ख्या ग्राह्यते एव ग्रहीतुं शक्नुमः अतः
अपि सङ्ख्या कीदृशपदार्थः अस्ति
सङ्ख्यागुणं गुणः
गुणः अस्ति गुणः अस्ति तर्हि आहत्य
आहत्य सङ्ख्यायाम् अतिव्याप्ति इति तत्र वक्तव्यं
यतोहि सङ्ख्यायां किमस्ति ग्राह्यत्वम् अस्ति चक्षुरिन्द्रियग्राह्यत्वम् अस्ति
अपि च गुणत्वमपि अस्ति
गुणत्वमपि अस्ति अपि सङ्ख्या रूपं नास्ति सङ्ख्या रूपं नास्ति लक्ष्यं नास्ति लक्ष्यं नास्ति अलक्ष्यम्
अलक्ष्यं तु अस्ति एव तत्र चक्षुर्ग्राह्यत्वमस्ति गुणत्वमपि अस्ति तत्र चक्षुर्भिन्न इन्द्रियैः अग्राह्यत्वं नास्ति नाम त्वचया ग्राह्यत्वम् अस्ति अतः
द्वितीय
अत्र तस्य द्वितीयदलं नास्ति अतः प्रथमं तृतीयं यदि स्वीकुर्मः चेत् सङ्ख्यायाम् अतिव्याप्तिः भवति
अतिव्याप्तिदोषः भवति समीचीनं किन्तु भवती यदुक्तवती तत् समीचीनं नाम यदि द्वितीयदलं योजयामः एतत् उदाहरणं न स्वीकर्तुं शक्नुमः
न स्वीकर् उदाहरणं तत्र नाम योग्यं नास्ति
केवलं यदि प्रथमं तृतीयदलम् अस्ति चेत् एव एतत् उदाहरणं कार्यं करोति
स्वीकर्तुं शक्नुमः
नो चेत् द्वितीयदलस्य योजनेन एतत् अपगच्छति इति अस्तु समीचीनं तर्हि तत्र चित्ररूपेण यत् अस्माकम् आसीत् तर्हि तत्र संख्या कुत्र भवति अस्मिन् तत्र अस्मिन् चित्रे तत्र प्रथमदलमपि अस्ति तृतीयदलम् अस्ति अस्मिन् क्षेत्रे खलु धनश्री भगिनि
आम् आं महोदय
तर्हि संख्या कुत्र अस्ति तर्हि संख्या कुत्र अस्ति अस्मिन् अत्र वा
तत्र बृहत् भागः अस्ति
अत्र अस्ति अत्र अस्ति समीचीनं तर्हि तत्र संख्या इति अत्र अस्ति संख्या इति अत्र अस्ति रूपं विहाय रूपं नास्ति अपि तत्र द्वितीयदलस्य योजनेन एषा संख्यायाम् अतिव्याप्तिदोषः निवार्यते अतः संख्या अत्र अस्ति द्वितीयदलस्य क्षेत्रे नास्ति अतः संख्या अत्र अस्ति समीचीनम् अस्तु उत्तमं एतादृशचित्रस्य प्रयोगेन किं किम् अवगच्छामः इति तादृश अभ्यासः कुर्मः तदा उत्तमरीत्या तत्र स्थापितं भवति अस्माकं मनसि अस्तु धन्यवादः भगिनि इदानीं तत्र अस्तु इदानीं तत्र समयः नास्ति इदानीं अस्तु तर्हि तत्र अग्रिमे वर्गे एतत् समापयितुं शक्नुमः तत्र केवलं तत्र यदि तत्र वयम् एतावत् तत्र प्रथमदलं द्वितीयदलम् अस्ति चेत् का स्थितिः प्रथमदलं तृतीयदलम् अस्ति चेत् का स्थितिः इति दृष्टवन्तः इदानीं तत्र द्वितीयदलं तृतीयदलम् अस्ति चेत् का स्थितिः इति अग्रिमे वर्गे पश्यामः तदनन्तरं दलसार्थक्यं समापितं भवति तदनन्तरम् अग्रे सरामः अग्रिमगुणं यदस्ति तत्र अस्तु तर्हि बहु समीचीनम् अस्ति अतः तत्र दलसार्थक्यं नाम किम् अपि तस्य अवगमनम् अस्मिन् रूपस्य लक्षणे इति अस्माकं विषयः अद्यतनविषयः आसीत् अस्तु तर्हि समीचीनं धन्यवादः अग्रिमे वर्गे मिलामः तर्हि नमस्कारः
धन्यवादः
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 धन्यवादः